ओम नमो भगवते वासुदेवाय। अथ त्रिंशोऽध्यायः। राजोवाच, ततो महाभागवत उद्धवे निर्गते वनम्। द्वारवत्याम् किमकरोत् भगवान् भूतभावनः। ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः। प्रेयसीम् सर्वनेत्राणाम् तनुम् स कथमत्यजत्। प्रत्याक्रष्टुम् नयनमबला यत्र लग्नम् न शेकुः। कर्णाविष्टम् न सरति ततो यत्सतामात्मलग्नम्। यच्छ्रीर्वाचाम् जनयति रतिम् किम् नुमानम् कवीनाम्। दृष्ट्वा जिष्णोर्युधिरथगतम् यच्च तत्साम्यमीयुः। ऋषिरुवाच, दिवि भुव्यन्तरिक्षे च महोत्पातान् समुत्थितान् दृष्ट्वा दीनान् सुधर्मायाम् कृष्णः प्राह यदूनिदम्। एते घोरा महोत्पाता द्वारवत्याम् यमकेतवः। मुहूर्तमपि न स्थेयमत्र नो यदुपुङ्गवाः। स्त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारम् व्रजन्त्वितः। वयम् प्रभासम् यास्यामो यत्र प्रत्यक् सरस्वती। तत्राभिषिच्य सुतय उपोष्य सुसमाहिताः। देवताः पूजयिष्यामः स्नपनालेपनार्हणैः। ब्राह्मणांस्तु महाभागान् कृतस्वश्चयना वयम्। गोभूहिरण्यवासोभिर्गजास्वरथवेश्मभिः। विधिरेशयरिष्टग्नो मङ्गलायनमुत्तमम्। देवद्विजगवाम् पूजा भूतेषु परमो भवः। इति सर्वे समाकर्ण्य यदुवृद्धा मसुद्विषः। तथेति नौभिरुत्तीर्य प्रभासम् प्रययूरथैः। तस्मिन् भगवतादिष्टम् यदुदेवेन यादवाः। चक्रुः परमया भक्त्या सर्वश्रेयोपबृंहितम्। ततस्तस्मिन् महापानम् पपुर्मैरेयकम् मधु। दिष्टविभ्रंशित धियो यद्रवैर्भष्यते मतिः। महापानाभिमत्तानाम् वीराणाम् दृप्तचेतसाम् कृष्णमायाविमूढानाम् सङ्घर्षः सुमहानभूत्। युयुधुः क्रोधसंरब्धा वेलायामाततायिनः। धनुर्भिरसिभिर्भल्लैर्गदाभिस्तोमरर्षिभिः। पतत्पताकैरथकुञ्जरादिभिः। खरोष्रगोभिर्महिषैर्नरैरपि। मितः समेत्याश्वतरैस्तुर्मदा निहंसरैर्दद्भिरिवद्विपावने। प्रद्युम्नसाम्बौ युधिरूढमत्सरा वक्रूरभोजावनिरुद्धसात्यकी। सुभद्रसङ्ग्रामजितौ सुदारुणौ गतौ सुमित्रा सुरथौ समीयतुः। अन्ये च ये वै निषठोल्मुकादयः सहस्रजित्शतजिद्भानुमुख्याः। अन्योन्यमासाद्यमदान्धकारिता जग्नुर्मुकुन्देन विमोहिता भृशम्। दासारवृष्ण्यन्धकभोजसात्वता मध्वर्बुदा माथुरशूरसेनाः। विसर्जना कुकुरा कुन्तयश्च मिथस्ततस्ते स विसृज्य सौहृदम्। पुत्रा अयुध्यन् पितृभिर्भ्रातृभिश्च स्वश्रीयदौहित्रपितृव्यमातुलैः। मित्राणि मित्रैः सुहृदः सुहृद्भिर्ज्ञातींश्च्यहङ्ज्ञातय एव मूढाः। शरेषु क्षीयमाणेषु भज्यमानेषु धन्वसु शस्त्रेषु क्षीयमाणेषु मुष्टिभिर्जरुरेरकाः। ता वज्रकल्पाय भवन् परिखा मुष्टिनाभृताः। जग्नुर्द्विषस्तैः कृष्णेन वार्यमाणास्तु तम् च ते। प्रत्यनीकम् मन्यमाना बलभद्रम् च मोहिताः। हन्तुम् कृतधियो राजन्नापन्ना आततायिनः। अथ तावपि सङ्क्रुद्धा उद्यम्य कुरुनन्दन एरकामुष्टिपरिघौ चरन्तौ जग्नतुर्युधि। ब्रह्मशापोपसृष्टानाम् कृष्णमायावृतात्मनाम् स्पर्धा क्रोधः क्षयम् निन्ये वैणवोऽग्निर्यथावनम्। एवम् नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः। अवतारितो भुवो भार इति मेनेव शेषितः। रामः समुद्रवेलायाम् योगमास्थाय पौरुषम्। तत्याजलोकम् मानुष्यम् संयोज्यात्मानमात्मनि। रामनिर्याणमालोक्य भगवान् देवकीसुतः। निषसादधरोपस्थे तूष्णीमासाद्यपिप्पलम्। बिभ्रच्चतुर्भुजम् रूपम् भ्राजिष्णुप्रभया स्वया दिशो वितिमिराः कुर्वन् विधूम इव पावकः। श्रीवत्साङ्कम् घनश्यामम् तप्तः टकवर्चसम्। कौशेयाम्बरयुग्मेन परिवीतम् सुमङ्गलम्। सुन्दरस्मितवक्त्राब्जम् नीलकुन्तलमण्डितम्। पुण्डरीकाभिरामाक्षम् स्फुरन्मकरकुण्डलम्। कटिसूत्र ब्रह्मसूत्र किरीटकटकाङ्गदैः। हारनूपुरमुद्राभिः कौस्तुभेन विराजितम्। वनमालापरीताङ्गम् मूर्तिमद्भिर्निजायुधैः। कृत्वौरौ दक्षिणे पादमासीनं पङ्कजारुणं मुसलावशेषाय खण्ड कृतेषुर्लुब्धगोचरा मृगास्याकारं तच्चरणं विव्याधमृगशङ्कया चतुर्भुजं तं पुरुषं दृष्ट्वा सकृतकिल्बिषः भीतः पपात शिरसा पादयोरसुरद्विषः अजानता कृतमिदं पापेन मधुसूदन क्षन्तुमरसि पापस्य उत्तमश्लोकमेनघ यस्यानुस्मरणं नृणामज्ञानध्वान्तनाशनं वदन्ति तस्य ते विष्णो मया साधु कृतं प्रभो तन्मासु जहि वैकुण्ठ पाप्मानं मृगलुब्धकं यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमं यस्यात्मयोगरचितं न विदुर्विरिञ्चो रुद्रादयोऽस्य तनया पतयो गिरां ये त्वन्माययापि हितदृष्टय एतदञ्जः किं तस्य ते वयमसद्गतयो गृणीमः श्रीभगवानुवाच मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे याहि त्वं मदनुज्ञातः स्वर्गं सुकृतिनां पदम् इत्यादिष्टो भगवता कृष्णेनेच्छा शरीरिणा त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ दारुकः कृष्णपदवीमन्विच्छन्नधिगम्यतां वायुं तुलसिकामोदमाग्राहयाभिमुखं ययौ तन्तत्र दिग्मद्युभिरायुधैर्वृतं यश्वत्थमूले कृतकेतनं पतिं स्नेहप्लुतात्मा निपपातपादयोरथादवप्लुत्य स बाष्पलोचनः अपश्यतस्त्वच्चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा दिशो न जाने न लभे च शान्तिं यथा निशायामुडुपे प्रणष्टे इति ब्रुवति सूते वै रथो गरुडलाञ्छनः खमुत्पपात राजेन्द्र शाश्वध्वज उदीक्षतः तमन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च तेनातिविस्मितात्मानं सूतमाह जनार्दनः गच्छद्वारवतीं सूत ज्ञातीनां निधनं मिथः सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशां द्वारकायां च न स्थेयं भवद्भिश्च स्वबन्धुभिः मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः अर्जुनेनाविता सर्व इन्द्रप्रस्थं गमिष्यथ त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः मन्माया रचनामेतां विज्ञायोपशमं व्रज इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुनः पुनः तत्पादौ शीर्ष्ण्युपाधाय दुर्मनः प्रययौ पुरीम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायामेकादशस्कन्धे त्रिंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्याधनपायिनी।